इन्द्रायसो वसुषु तत्परिश्रवापामी वा भवदुरक्षसासः मा तेरसस्य वत्सदग्नजा विनो द्रवीरस्वन्त इह सन्तिन्दवः अस्मान् स वर्ये पवमानचोदयदक्षो देवानामसि हि प्रियो मदः हि शत्रोन्द्रभ्याबन्धनायतः पिबेन्द्रसो मम वनो मृधो जिहि अदब्ध इन्दोपवसे मदिन्दम आत्मेन्द्रस्य भवसि दासिरुत्तमः अभिस्वरन्ति बहवो मनीषिणो राजा नमस्य भुवनस्य निंसते सहस्रणीतः सदधारो अद्भुत इन्द्रायेन्द्रः पवते काम्यम् मधु जयम् क्षेत्रमभ्यर्डाजयन्नपुरुन्नो घातुम् कृण सोममीढ्वः कणिकलत्कलसे गोभिरज्जसेव्याजयम् समयावारवर्षसि मृज्यमानो अत्यो नसा नसिलिङ्गस्य सोमजठरे समक्षरः स्वादुःपवस्त दिव्याय जन्माने स्वादुरिन्द्राय सुभवीतुनाम्ने स्वादुर्मित्राय वरुणाय भाजवे बृहस्पतये मधुमाङ्गलाभ्यः सत्यम् मृजन्ति कलसे दशक्षिपप्रविप्राणाम् मदयो वाच जीरते अवमाना अभ्यर्डन्ति दुष्टदिनेन्द्रम् विशन्ति महिलास इन्द्रवः अपमानो अभ्यर्डा सुवीर्य मुर्वीम् गव्योतिम् महि शर्म सप्रथाः अस्य परीषु दिलीशतेन्दो जये मत्वया धनम् धनम् अधिद्यावस्ताद्दृढवो बीजक्षणोरोतद्विजिगोरोसरा कविः राजा पवित्रमध्ये गिरोरो मद्दिवस्पीयूषम् दुहते ऋचक्षसः दिवो नाके मधुजिह्वा असश्चतो वेनादोहम् चुक्षणम् गिरिष्ठाम् अक्षुद्रत्सम् वा दधानम् स मुद्रा सिन्धोरोर्मा मधुमन्तम् पवित्रा नाके सुपर्णमुपपत्तिवाम् सङ्गिरो वेनानामकृबन्त पूर्वीः शिशुम् निहन्ति मदयः पनिप्रदम् हिरण्ययम् सगुणाम् क्षामनिष्ठाम् ऊर्ध्वो गन्धर्वो अधिरागे अस्ताद्विश्वारूपात्रादिलक्षाणो अस्य भानुः शुक्रेण सोजिषाव्यद्योत्प्रारोरुजग्रोदसी मातरा शुचिः